आवर्जित जटा मौली विलम्बिशशिकोटयः रुद्राणामपि मूर्धानः क्षतहुङ्कारशंसिनः
आवर्जितेति आवर्जितेषु परिभवदुःखावनम्रेषु जटानाम् मौलिषु जटाजूटेषु विलम्बिन्यः स्रंसिन्यः शशिकोटयः चन्द्ररेखाः एषाम् ते तथोक्ताः रुद्राणाम् अपि एकादशानामिति शेषः मूर्धानः क्षतम् हुङ्कारम् शंसन्तीति तथोक्ताः हुङ्कारक्षत्यनुमापकाः इत्यर्थः हुङ्कारशस्त्रा हि रुद्राः इति भावः
लब्धप्रतिष्ठाः प्रथमम् यूयम् किम् बलवत्तरैः अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः
लब्धेति प्रथमम् पूर्वम् लब्धप्रतिष्ठाः लब्धस्थितयः लब्धावकाशाः इत्यन्यत्र यूयम् बलवत्तरैः पौरुषातिरेकात् प्रबलतरैः निरवकाशैः इत्यपरत्र परैः शत्रुभिः उत्सर्गाः सामान्यशास्त्राणि मा हिंस्यात् इत्येवमादीनि अपोद्यन्ते एभिः इत्यपवादैः गामालभेता इत्यादिभिः विशेषशास्त्रैरिव किम् कृतव्यावृत्तयः कृतप्रतिष्ठाभङ्गाः कृतविषयसङ्कोचरूपबाधाः इत्यन्यत्र विषयसङ्कोच एव बाधः इत्याचार्याः निषेधशास्त्रस्य वैदिकहिंसापरिहारेण लौकिकमात्रे व्यवस्थापनात् विषयसङ्कोच इत्यलम् अतिगहनावगाहनेन
तद्ब्रूतवत्साः किमितः प्रार्थयध्वम् समागताः मयि सृष्टिर्हि लोकानाम् रक्षायुष्मास्ववस्थिता
तदिति तत्तस्मात् कारणात् हे वत्साः पुत्रकाः वत्सस्त्वर्भकपुत्राद्योः वर्षे वत्सन्तु वक्षसि इति विश्वः स्वयम् पितामहत्वात् वत्साः इत्यामन्त्रयते सम्भूय आगताः समागताः इतो मत्तः किम् प्रार्थयध्वम् किमिच्छतेत्यर्थः ब्रूत लोकरक्षणे यूयमेव कर्तार इत्याह मयि लोकानाम् सृष्टिः हि रक्षा युष्मासु अवस्थिता अतः तदर्थमपि नास्ति मदपेक्षा इत्यर्थः
ततो मन्दानिलोद्धूत कमलाकरशोभिना गुरुम् नेत्रसहस्रेण नोदयामास वासवः
तत इति ततः भगवत्प्रश्नानन्तरम् वासवः इन्द्रः गुरुम् बृहस्पतिम् गुरु गीष्पतिपित्राद्यौ इत्यमरः मन्दानिलोद्धूतः यः कमलाकरः स इव शोभते इति तेन तथोक्तेन नेत्राणाम् सहस्रेण नोदयामास प्रेरयामास सहस्रग्रहणम् आस्थातिशयार्थम् अनिमेषाणाम् अपि प्रयत्नवशात् अक्षिस्पन्दः न विरुध्यते
सद्विनेत्रम् हरेश्चक्षुः सहस्रनयनाधिकम् वाचस्पतिर्वाचेदम् प्राञ्जलिर्जलजासनम्
स इति हरेः इन्द्रस्य इन्द्रो दुश्यवनो हरिः इति हलायुधः सहस्रात् नयनेभ्यः अधिकम् सहस्रनयनाधिकम् तदगोचरदर्शित्वादिति भावः द्वे नेत्रे यस्य तत् द्विनेत्रम् प्रसिद्धात् चक्षुषोऽयं विशेष इत्यर्थः चक्षुः चक्षुर्भूतः चक्षुष्ट्वारोपस्य प्रकृतोपयोगात् परिणामालङ्कारः सः वाचस्पतिः कस्कादित्वात् अलुक्सत्वे षष्ठ्याः पतिपुत्र इत्यादिना सत्वमिति स्वामी तन्न छन्दोविषयत्वात् प्राञ्जलिः सन् जलजासनम् ब्रह्माणम् इदम् उवाच
एवम् यदाथ भगवन् आमृष्टम् नः परैः पदम् प्रत्येकम् विनियुक्तात्मा कथम् न ज्ञास्यसि प्रभो
एवमिति हे भगवन् षड्गुणैश्वर्यसम्पन्न यदात्थ कृतव्यावृत्तयः परैः इति यद्ब्रवीषि ब्रुवः पञ्चानाम् इत्यादिना आहादेशः वर्तमानसामीप्ये वर्तमानवद्वा इति वर्तमानप्रयोगः वामनस्तु भ्रान्तोऽयम् प्रयोग इत्याह आहेति भूते नलन्तभ्रमवदिति आहेत्युपलक्षणम् तदेवम् सत्यम् नः अस्माकम् पदम् अधिकारः परैः शत्रुभिः आमृष्टम् आक्षिप्तम् हे प्रभो प्रत्येकम् प्रतिपुरुषम् विनियुक्तात्मा प्रवेशितस्वरूपः सर्वान्तर्यामीत्यर्थः कथम् न ज्ञास्यसि न वेत्सि वर्तमानेऽपि वचनभङ्ग्या भविष्यन्निर्देशः प्रसिद्धः अपह्नवे ज्ञः अकर्मकाच्च इत्यात्मनेपदविकल्पः
भवल्लब्धवरोदीर्णः तारकाख्यो महासुरः उपप्लवाय लोकानाम् धूमकेतुरिवोत्थितः
भवदिति भवतः त्वत्तः लब्धेन वरेण उदीर्णः उद्धतः तारकः इत्याख्या नामधेयम् यस्य सः तारकाख्यः महान् असुरः महासुरः सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः इति तत्पुरुषः धूमकेतुः उत्पातविशेष इव लोकानाम् उपप्लवाय उपद्रवाय उत्थितः उत्पन्नः
पुरे तावन्तमेवास्य तनोति रविरातपम् दीर्घिका कमलोन्मेषः यावन्मात्रेण साध्यते
पुर इति अस्य तारकस्य पुरे रविः सूर्यः तावन्तम् तावन्मात्रमेव आतपम् तनोति यावन्मात्रेण यावतैव यावती मात्रामितिः यस्य यावन्मात्रम् तेन वा अल्पपरिमाणेनेत्यर्थः मात्रा परिच्छदे अल्पे च परिमाणे सा मात्रम् कार्ष्ण्येव धारणे इत्यमरः दीर्घिकासु क्रीडावापीषु कमलानाम् उन्मेषः विकासः साध्यते निष्पाद्यते कठोरकिरणोऽपि मन्दोष्णः सन्नेव तद्भीत्या पुरे प्रकाशत इत्यभिप्रायः
सर्वाभिः सर्वदा चन्द्रः तम् कलाभिर्निषेवते नादत्ते केवलाम् लेखाम् हरचूडामणीकृताम्
सर्वाभिरिति चन्द्रः तम् तारकम् सर्वदा कृष्णपक्षेऽपीत्यर्थः सर्वाभिः कलाभिः निषेवते कला तु षोडशो भागः इत्यमरः केवलाम् हरचूडामणीकृताम् शिवशिरोमणीकृताम् लेखाम् नादत्ते न गृह्णाति
व्यावृत्तगतिरुद्याने कुसुमस्ते यसाध्वसात् नवाति वायुस्तत्पार्श्वे तालवृन्तानिलाधिकम्
व्यावृत्तेति वायुः स्तेनस्य भावः कर्म वा स्तेयम् चौर्यम् स्तेनाद्यन्नलोपश्च इति यत्प्रत्ययो नलोपश्च कुसुमानाम् स्तेयम् तस्मात् स्तेयाभियोगात् दण्डाद्वा साध्वसम् भयम् तस्माद्धेतोः उद्याने व्यावृत्तगतिः निवृत्तोद्यानसञ्चारस्सन्नित्यर्थः सापेक्षत्वेऽपि गमकत्वात् समासः तत्पार्श्वे तत्समीपे तालस्य वृन्तैः उद्ग्रथ्यते तालस्येव वृन्तमस्येति वा तालवृन्तम् तस्य अनिलात् व्यजनसञ्चारपवनात् अधिकम् यथा तथा न वाति व्यजनम् तालवृन्तकम् इत्यमरः
पर्यायसेवामुत्सृज्य पुष्पसम्भारतत्पराः उद्यानपालसामान्यम् ऋतवस्तमुपासते
पर्यायेति ऋतवः षड्वसन्तादयः पर्यायसेवाम् क्रमसेवाम् उत्सृज्य पुष्पाणाम् सम्भारे सङ्ग्रहे तत्पराः आसक्तास्सन्तः इत्यर्थः तत्परे प्रसितासक्तौ इत्यमरः उद्यानपालैः उद्यानाधिकृतैः सामान्यम् साधारणम् यथा भवति तथा तम् तारकम् उपासते सेवन्ते शीतोष्णादिदोषप्रकाशनम् तु दूरापास्तमित्यर्थः
तस्योपायनयोग्यानि रत्नानि सरिताम् पतिः कथमप्यम्भसामन्तः आनिष्पत्तेः प्रतीक्षते
तस्येति सरिताम् पतिः समुद्रः तस्य तारकस्य उपायनानाम् प्राभृतानाम् योग्यानि प्राभृतम् तु प्रदेशनम् उपायनम् इत्यमरः रत्नानि अम्भसाम् अन्तरा निष्पत्तेः परिपाकपर्यन्तम् विकल्पात् असमासः कथमपि महता यत्नेन प्रतीक्षते कदा वा परिपच्येरन् इति एकाग्रेण पालयतीत्यर्थः
ज्वलन्मणिशिखाश्चैनम् वासुकि प्रमुखानिशि स्थिरप्रदीपताम् एत्य भुजङ्गाः पर्युपासते
ज्वलदिति किञ्चेति चार्थः ज्वलन्त्यः मणीनाम् शिरोरत्नानाम् शिखाः ज्वालाः येषान्ते वासुकिप्रमुखाः भुजङ्गाः सर्पाः सिद्धाश्च ध्वन्यन्ते भुजङ्गस्सिद्धसर्पयोः इत्यमरः निशि स्थिरप्रदीपताम् अनिर्वाणदीपत्वम् एत्य एनम् तारकम् पर्युपासते परिवृत्य सेवन्ते
तत्कृतानुग्रहापेक्षी तम् मुहुर्दूतहारितैः अनुकूलयतीन्द्रोऽपि कल्पद्रुमविभूषणैः
तत्कृतेति इन्द्रोऽपि तेन तारकेण कृतम् तत्कृतम् अनुग्रहम् प्रसादम् अपेक्षते इति तथोक्तस्सन् मुहुः दूतहारितैः दूतप्रापितैः कल्पद्रुमाणाम् विभूषणैः तत्प्रसूनैरित्यर्थः तम् तारकम् अनुकूलयति अनुकूलम् करोति
इत्थमाराध्यमानोऽपि क्लिश्नातिभुवनत्रयम् शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः
इत्थमिति इत्थम् उक्तप्रकारेण రవి శశి పవనోదధి భుజంగ సురేంద్రైః ఆరాధ్యమానః అపి భువనత్రయం క్లిష్ణాతి పీడయతి. తథా హి దుర్జనః ప్రత్యపకారేణ ప్రతీకారేణైవ శామ్యేత్ శాంతో భవేత్, ఉపకారేణ తు న శామ్యేత్ ప్రత్యుత ప్రకుప్యతీతి భావః.
తేనామరవధూహస్తైః సదయాలూనపల్లవాః అభిజ్ఞాశ్చేదపాతానాం క్రియంతే నందనద్రుమాః.
తేనేతి తేన తారకేణ అమరవధూహస్తైః సుకుమారైరితి భావః. తైరపి సదయం ఆలూనాః అవతంసార్థం ఛిన్నాః పల్లవాః ఏషాంతే నందనద్రుమాః. ఛేదాశ్చ పాతాశ్చ ఛేదపాతాః తేషాం అభిజానంతీత్యభిజ్ఞాః. కృద్యోగాత్ కర్మణి షష్ఠీ క్రియంతే.
వీజ్యతే సహి సంసుప్తః శ్వాససాధారణానిలైః చామరైః సురవందీనాం బాష్పసీకరవర్షిభిః.
వీజ్యత ఇతి హి యస్మాత్ కారణాత్ స తారకః సంసుప్తస్సన్ శ్వాససాధారణః నిశ్వాససమానః అనిలః ఏషాం తైః. తతోపి ఆధిక్యే నిద్రాభంగభయాదితి భావః. బాష్పశీకరవర్షిభిః తాసాం స్త్రీణాం రోదనస్య అయం అవసర ఇతి భావః. సురబందీనాం సురప్రగ్రహస్త్రీణాం సంబంధిభిః ప్రగ్రహాపగ్రహౌ బంధ్యాం ఇత్యమరః. చామరైః వీజ్యతే.
ఉత్పాట్య మేరుశృంగాణి క్షుణ్ణాని హరితాంఖురైః ఆక్రీడ పర్వతాస్తేన కల్పితాస్వేషు వేష్మసు.
ఉత్పాట్యేతి తేన తారకేణ హరితాం సూర్యాశ్వానాం హరిత్సూర్యే చ సూర్యాశ్వే వర్ణే చ హరితే దిశి ఇతి విశ్వః. ఖురైః శఫైః క్షుణ్ణాని చూర్ణితాని ఏతేన తేషాం అత్యౌన్నత్యం సూచితం. మేరుశృంగాణి ఉత్పాట్య స్వేషు వేష్మసు వేష్మస్వితి బహువచనేన అస్య భువనత్రయ నివాసః సూచితః. ఆక్రీడంతే ఏషు ఆక్రీడాః తే చ తే పర్వతాః కల్పితాః కృతాః.
మందాకిన్యాః పయశేషం దిగ్వారణ మదావిలం హేమాంభోరుహ సస్యానాం తద్వాప్యో ధామ సాంప్రతం.
మందాకిన్యా ఇతి సాంప్రతం సంప్రతి మందాకిన్యాః భాగీరథ్యాః దిగ్వారణానాం దిగ్గజానాం మదైః ఆవిలం కలుషం పయః జలమేవ. శిష్యత ఇతి శేషం శిష్టం కర్మణి అణ్ప్రత్యయః. త్రిష్వన్యత్రోపయుజ్యతే ఇతి నపుంసకత్వం. తరిహి కనకకమలాని క్వ గతానీత్యాః. హేమేతి హేమాంభోరుహాణ్యేవ సస్యాని తేషాం తు తస్య వాప్యః తద్వాప్యః ఏవ ధామ స్థానం. సర్వాణ్యపి ఉత్పాట్య స్వదీర్ఘికాస్వేవ ప్రతిరూపితవాన్ ఇత్యర్థః.
భువనాలోకన ప్రీతిః స్వర్గిభిర్నానుభూయతే ఖిలీభూతే విమానానాం తదాపాత భయాత్పథి.
భువనేతి తస్య తారకస్య ఆపాతాత్ సమాపత్తేః భయాత్ విమానానాం పథి ఖిలీభూతే अप्रहती भूते सति द्वे खिला प्रहते समे इत्यमरः स्वर्गिभिः देवैः भुवनानाम् आलोकने प्रीतिः नानुभूयते।